इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः डॉक्टर गणेश हेगडे। अथ वार्ताः। प्रधानमन्त्री श्रीनरेन्द्रमोदी उक्तवान् यत् परिवर्तनशील वैश्विक परिस्थितौ सुरक्षा सहकार्यं गभीरं कर्तुं तथा च आतंकवादात् अन्तर्जालीय सुरक्षायाः च आरभ्य उदयमान प्रौद्योगिकी पर्यन्तं समाह्वानानां परिहारे ब्रिक्स इत्यस्य महत्वपूर्णा भूमिका वर्तते। प्रधानमन्त्री श्रीमोदी गतसायं नवदिल्ल्यां ब्रिक्स देशानां राष्ट्रिय सुरक्षा परामर्शदैः वरिष्ठ सुरक्षाधिकारिभिः सह मिलितवान्। सामाजिक माध्यम सन्देशे श्रीमोदिना प्रकाशितं यत् भारतस्य ब्रिक्स अध्यक्षता व्यावहारिक सहकार्यं प्रवर्तयितुं वैश्विक दक्षिणस्य प्राथमिकतानां समर्थनं कर्तुं सुरक्षित समावेशीय विश्वे च योगदानं दातुं प्रयतते। प्रधानमन्त्री श्रीनरेन्द्रमोदी कतरदेशस्य अमीरस्य शेख तमीम बिन हमद अल थानी इत्यस्य दूरभाषं प्राप्तवान्। कतरस्य रास लफ्फान औद्योगिकनगरे दुर्घटनायां भारतीय नागरिकाणां निधनविषये कतरस्य अमीरः शोकं प्रकटितवान् तथा च घातितानां शीघ्रं स्वस्थतायाः आशां प्रकटितवान्। श्रीमोदी प्रभावित परिवारेभ्यः सहानुभूति वचनानां कृते कतरमीराय धन्यवादं दत्तवान्। व्रणितानां कृते शीघ्र चिकित्सा सहायता प्रदानाय च प्रशंसितवान्। द्वौ नेतारौ स्वनागरिकाणां कल्याणं सुरक्षाञ्च सुनिश्चेतुं स्वप्रतिबद्धतायाः पुनः पुष्टिं कृतवन्तौ। भारतस्य खनिज मन्त्रालयेन 56 महत्वपूर्णानां सामरिक खनिज खण्डानां अथ 11 अन्वेषण अनुज्ञापत्र खण्डानां च सफल सघोष विक्रयणेन सह क्रिटिकल मिनरल मिशन इति दुर्लभ खनिज कार्यक्रमस्य महती गतिः प्राप्ता अस्ति। मन्त्रालयेन सघोष विक्रयणस्य 7 खण्डस्य अन्तर्गतं 10 महत्वपूर्ण सामरिक खनिज खण्डाः सफलतया सघोष विक्रयणं कृताः। भारतेन पाकिस्तानाक्रमित जम्मूकश्मीरस्य स्थितिविषये कृतटिप्पणी सम्बद्धं पाकिस्तानस्य रक्षामन्त्री ख्वाजा आसिफ इत्यस्य घोरालोचना कृता। विदेशमन्त्रालयेन कथितं यत् एताः टिप्पण्यः प्रतिवेशिदेशस्य स्वस्य असफलताम् अवच्छादनाय स्वस्य मानव अधिकारस्य उल्लङ्घनात् ध्यानं दूरीकर्तुं क्रियमाणाः निराशजनकाः प्रयासाः सन्ति। नवदिल्ल्यां वार्ताहरान् सम्बोधयन् विदेशमन्त्रालयस्य प्रवक्ता रणधीर जयसवालः अवदत् यत् भारतम् एतान् कल्पित आरोपान् स्पष्टतया तिरस्कुर्वति। सः आशां प्रकटितवान् यत् अन्ताराष्ट्रिय समुदायः पाकिस्तानस्य दुष्कृतानां दुरुपयोगानां च उत्तरदायी भविष्यति। विदेशमन्त्रालयेन कतरदेशे विस्फोटेन 12 भारतीय नागरिकाणां मृत्योः पुनः पुष्टीकृता अस्ति। जयसवालः अवदत् यत् अस्यां घटनायाम् आहत्य 66 जनाः घातिताः सन्ति, ये सम्प्रति चिकित्सां प्राप्नुवन्ति। कतरदेशे अग्निदुःखद घटनायां प्रभावितानां जनानां साहाय्यार्थं तमिलनाडु सर्वकारेण सहायता घोषिता। मुख्यमंत्री सी जोसेफ विजयः अस्यां घटनायां ये प्राणान् त्यक्तवन्तः तेषां परिवारेभ्यः 10 लक्षरूप्यकाणाम् अनुग्रह राशिं घोषितवान्। राष्ट्रपतिः द्रौपदी मुर्मुः गतसायं राष्ट्रपतिभवने नागरिक सम्मान समारोहे पद्म पुरस्कार प्रदानं कृतवती। पत्रकारः पी नारायणन्, टेनिस क्रीडकः विजय अमृतराज, अभिनेतारौ मम्मुट्टी तथा आर माधवन्, गायिका अलका याज्ञिकः च प्राप्त पुरस्कारेषु अन्यतमाः सन्ति। अस्मिन् वर्षे सर्वकारेण आहत्य 31 पद्म पुरस्काराः घोषिताः आसन्। एतेषु 5 पद्मविभूषणं, 13 पद्मभूषणं, 13-100 पद्मश्री पुरस्काराः च सन्ति। कृषि कृषक कल्याण मंत्री शिवराज सिंह चौहानः अवदत् यत् यल्निनो कारणात् उत्पद्यमानस्य दुर्लभ दुर्बल मानसूनस्य संभाव्य प्रभावस्य निवारणे भारत सर्वकारः कृषकाणां सहायतायै पूर्वसिद्धतां कुर्वन् वर्तते। इति वार्ताः।